हरिहरा द्वैतात्मिका सरस्वती पुस्तकमिदं पुण्यं यः पठेत् प्रयतो नरः सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति। इति श्रीमत् शंकराचार्य विरचितं श्री